ಪ್ರತಿಗುಂ ಹವಾಮಹೇ ಕವಿಂ ಕವೀನಾಮುಪಮಶ್ರವಸ್ತಮಂ ಜ್ಯೇಷ್ಠರಾಜಂ ಬ್ರಹ್ಮಣಾಂ ಬ್ರಹ್ಮಣಸ್ಪತಾನ ಶೃಣ್ವನ್ನೋತಿಭಿಃ ಸೇದಸಾಧನಂ ಪ್ರಣೋ ದೇವೇ ಸರಸ್ವತೀ ವಾಜೇಭಿರ್ವಾಜಿನೀವತಿ ಧೀನಾಮವಿತ್ರಯವತು ಗಣೇಶಾಯ ನಮಃ ಸರಸ್ವತ್ಯೈ ನಮಃ ಶ್ರೀ ಗುರುಭ್ಯೋ ನಮಃ ಹರಿ ಓಂ ಓಂ ನಮೋ ಭಗವತೇ ರುದ್ರಾಯ ಓಂ ನಮಸ್ತೆ ರುದ್ರಮನ್ಯವ ಉತೋತ ಇಷವೇ ನಮಃ ನಮಸ್ತೆ ಅಸ್ತು ಧನ್ವನೇ ಬಾಹುಭ್ಯಾಮುತತೇ ನಮಃ ಯಾತ ಇಷು ಶಿವತಮಾ ಶಿವಂ ಬಭೂವತೇ ಧನುಃ ಶಿವಾ ಶರವ್ಯಾಯಾತವತಯಾನೋ ರುದ್ರಮೃಡಯಾ ಯಾತೇ ರುದ್ರ ಶಿವಾ ತನೂರ ಘೋರಾ ಪಾಪಕಾಶಿನಿ ತಯಾನಸ್ತನು ವಾಶಂತಮಯಾ ಗಿರಿಶಂತಾ ಬಿಚಾಕಶೇ ಯಾಮಿಷುಂ ಗಿರಿಶಂತಹಸ್ತೇಭಿಭರ್ಷ್ಯಸ್ತವೇ ಶಿವಾಂ ಗಿರಿತ್ರತಾಂ ಕುರು ಮಾಹಿ ಗುಂಸಿ ಪುರುಷಂ ಜಗತ ಶಿವೇಣ ವಚಸಾ ತ್ವಾ ಗಿರಿಶಾ ಚಾವದಾಮಸಿ ಯಥಾ ನಃ ಸರ್ವಮಿಜ್ಜಗದ ಯಕ್ಷ್ಮಗುಂಸು ಮನಾ ಅಸತ ಅಧ್ಯವೋಚತದಿ ವಕ್ತಾ ಪ್ರಥಮೋ ದೈವ್ಯೋಭಿಷಕ ಅಹೇಗಶ್ಚ ಸರ್ವಾನ್ ಜಂಭಯನ್ ಸರ್ವಾಶ್ಚ ಯಾತು ಧಾನ್ಯಃ ಅಸೌ ಯಸ್ತಾಮ್ರೋ ಅರುಣ ಉತ ಬಭ್ರುಸ್ಸು ಮಂಗಲಃ ಯೇ ಚೇಮಾಗುಂ ರುದ್ರ ಅಭಿತೋ ದಿಕ್ಷು ಶ್ರಿತಾತ್ ಸಹಸ್ರಶೋ ವೈಶಾಗುಂ ಏಡ ಏಮಹೇ ಅಸವ್ಯೋ ವಸರ್ಪತಿ ನೀಲಗ್ರೀವೋ ವಿಲೋಹಿತಃ ಉದೈನಂ ಗೋಪಾ ಅದೃಶನ್ನದೃಶನ್ನು ದಹಾರ್ಯಃ ಉತೈನಂ ವಿಶ್ವಾ ಭೂತಾನಿ ಸದೃಷ್ಟೋ ಮೃಳಯಾತಿನಃ ನಮೋ ಅಸ್ತು ನೀಲಗ್ರೀವಾಯ ಸಹಸ್ರಾಕ್ಷಾಯ ಮೀಡುಷೇ ಅಥೋ ಯೇ ಅಸ್ಯ ಸತ್ವಾನೋಹಂ ತೇಭ್ಯೋ ಕರನ್ನಮಃ ಪ್ರಮುಂಚ ಧನ್ವನಸ್ತ್ವಮುಭಯೋರಾತ್ನಿಯೋರ್ಜ್ಯಾ ಯಾಶ್ಚ ತೇ ಹಸ್ತ ಇಷವ ಪರಾತಾ ಭಗವೋ ವಪ ಅವತತ್ಯ ಧನುಸ್ತ್ವಗುಂ ಸಹಸ್ರಾಕ್ಷಶತೇಷುಧೇ ನಿಶೀರ್ಯ ಶಲ್ಯಾನಾಮುಖಾ ಶಿವೋನ ಸುಮನಾ ಭವ ವಿಜ್ಯಂ ಧನು ಕಪರ್ದಿನೋ ವಿಶಲ್ಯೋ ಬಾನವಾಗುಂ ಉತ ಅನೇಷನ್ನಸ್ಯೇಷವ ಆಭುರಸ್ಯ ನಿಷಂಗತಿಃ ಯಾತೇ ಹೇತಿರ್ಮೀಡುಷ್ಟಮಹಸ್ತೆ ಬಭೂವತೇ ಧನುಃ ತಯಾಸ್ಮಾನ್ ವಿಶ್ವತಸ್ತ್ವಮಯಕ್ಷ್ಮಯಾ ಪರಿಭುಜಾ ನಮಸ್ತೆ ಅಸ್ತ್ವಾಯುಧಾಯಾನಾ ತಥಾಯ ದೃಷ್ಣವೇ ಉಭಾಭ್ಯಾಮುತತೇ ನಮೋ ಬಾಹುಭ್ಯಾಂ ತವ ಧನ್ವನೇ ಪರಿತೇ ಧನ್ವನೋ ಹೇತಿರಸ್ಮಾನ್ ವೃಣಕ್ತು ವಿಶ್ವತಃ ಅಥೋ ಯ ಇಷುದಿಸ್ತವಾರೇ ಅಸ್ಮನ್ನಿದೇಹಿತಂ ನಮಸ್ತೆ ಅಸ್ತು ಭಗವನ್ ವಿಶ್ವೇಶ್ವರಾಯ ಮಹಾದೇವಾಯ ತ್ರಯಂಬಕಾಯ ತ್ರಿಪುರಾಂಧಕಾಯ ತ್ರಿಕಾಗ್ನಿಕಾಲಾಯ ಕಾಲಾಗ್ನಿರುದ್ರಾಯ ನೀಲಕಂಠಾಯ ಮೃತ್ಯುಂ ಜಯಾಯ ಸರ್ವೇಶ್ವರಾಯ ಸದಾಶಿವಾಯ ಶ್ರೀಮನ್ಮಹಾದೇವಾಯ ನಮಃ. నమో హిరణ్య బాహవే సేనాన్యే దిశాం చ పతయే నమో నమో వృక్షేభ్యో హరికేశేభ్యః పశూనాం పతయే నమో నమః సస్మింజరాయ ద్విషేమతే పథీనాం పతయే నమో నమో బబ్లుషాయ వ్యాధినే నానాం పతయే నమో నమో హరికేశాయోపవీతినే పుష్టానాం పతయే నమో నమో భవస్య హేత్యై జగతాం పతయే నమో నమో రుద్రాయ తతావినే క్షేత్రాణాం పతయే నమో నమః సూతాయ హంత్యాయ వనానాం పతయే నమో నమో లోహితాయ స్తపతయే వృక్షాణాం పతయే నమో నమో మంత్రిణే వాణిజాయ కక్షాణాం పతయే నమో నమో భువంతయే వారివస్కృతాయౌషధీనాం పతయే నమో నమ ఉచ్చై ఘోషాయ క్రంధయతే పత్తీనాం పతయే నమో నమ కృత్స్నవీతాయ ధావతే సత్వనా పతయే నమః నమః సహమానాయన వ్యాధినా వ్యాధినీనా పతయే నమో నమ ककुबाय निषंगिने सेनानां पतये नमो नमो निषंगिण इषुधिमते तस्कराणां पतये नमो नमो वञ्चते परिवञ्चते स्तायुना पतये नमो नमो निचेरवे परिचरायारण्यानां పతయే నమో నమ శ్రీకావిభ్యోజిగాగుం సద్భ్యోముష్ణత పతయే నమో నమో శ్రీమద్భ్యోన్నక్తం చరద్భ్య ప్రకృంతానాం పతయే నమో నమ ఉష్ణీషిణే గిరిచరాయ కులుంచానాం పతయే నమో నమ ఇషుమద్భ్యోదన్వావిభ్యశ్చ వో నమో నమ ఆతన్వాణేభ్య ప్రతిదధానేభ్యశ్చ వో నమో నమ ఆయశ్చద్భ్యో విసృజద్భ్యశ్చ వో నమో నమోస్యద్భ్యో విద్యద్భ్యశ్చ వో నమో నమ ఆసీనేభ్య శయానేభ్యశ్చ వో నమో నమ స్వపద్భ్యో జాగ్రద్భ్యశ్చ వో నమో నమ తిష్టద్భ్యో ధావద్భ్యశ్చ వో నమో నమ సభాభ్యః సభాపతిభ్యశ్చ వో నమో నమో అశ్వేభ్యో అశ్వపతిభ్యశ్చ వో నమః నమ ఆవ్యాధినీభ్యో వివిధ్యంతేభ్యశ్చ వో నమో నమ ఉగణాభ్యత్రిగుంహతేభ్యశ్చ వో నమో నమో గృత్సేభ్యో గృత్సపతిభ్యశ్చ వో నమో నమో వ్రాతేభ్యో వ్రాతపతిభ్యశ్చ వో నమో నమో గణేభ్యో గణపతిభ్యశ్చ వో నమో నమో విరూపేభ్యో విశ్వరూపేభ్యశ్చ వో నమో నమో మహద్భ్యః శుల్లకేభ్యశ్చ వో నమో నమో రతిభ్యో రతేభ్యశ్చ వో నమో నమో రథేభ్యో రతపతిభ్యశ్చ వో నమో నమ సేనాభ్య సేనానిభ్యశ్చ వో నమో నమః శత్రుభ్యః సంగ్రహీతృభ్యశ్చ వో నమో నమస్తక్షభ్యో రథకారేభ్యశ్చ వో నమో నమ కులాలేభ్య కర్మారేభ్యశ్చ వో నమో నమ పుంజిష్ఠేభ్యో నిషారేభ్యశ్చ వో నమో నమ ఇషుకృద్భ్యో దన్వకృద్భ్యశ్చ వో నమో నమో మృగయుభ్యశ్వనిభ్యశ్చ వో నమో నమ శ్వభ్యశ్వపతిభ్యశ్చ వో నమః नमो भवाय च रुद्राय च नमः शर्वाय च पशुपतये च नमो नीलग्रीवाय च शितिकण्ठाय च नमः कपर्दिने च व्युक्तकेशाय च नमः सहस्राक्षाय च शतधन्वने च नमो गिरिशाय च शिपिविष्टाय च नमो मीरुष्टमाय चेषुमते च नमो ह्रस्वाय च वामनाय च नमो बृहते च वर्षेयसे च नमो वृद्धाय च संवृध्वने च नमो अग्रियाय च प्रथमाय च नमः आशवे चाजिराय च नमः शेख्रियाय च शेभ्याय च नमः ऊर्म्याय चावस्वन्याय च नमः श्रोतस्याय च द्वेभ्याय च नमो ज्येष्ठाय च कनिष्ठाय च नमः पूर्वजाय च परजाय च नमो मध्यमाय च पगल्भाय च नमो जगन्याय च बुद्धनियाय च नमः सोभ्याय च प्रतिसर्याय च नमो याम्याय च क्षेम्याय च नमः उर्वर्याय च खल्याय च नमः श्लोक्याय चावसान्याय च नमो वन्याय च कक्षाय च नमः श्रवाय च प्रतिश्रवाय च नमः आशुषेणाय चाशुरथाय च नमः शूराय चावबिन्दते च नमो वर्मिणे च वरूतिने च नमो बिल्मिने च कवचिने च नमः श्रुताय च श्रुतसेनाय च नमो दुन्दुभ्याय च हनन्याय च नमो धृष्णवे च प्रमृषाय च नमो धूताय च प्रहिताय च नमो निषङ्गिणे चेशुधिमते च नमः तीक्ष्णेशवे चायुधिने च नमः स्वायुधाय च सुधन्वने च नमः श्रुत्याय च पथ्याय च नमः काट्याय च नीप्याय च नमः शूद्याय च सरस्याय च नमो नाद्याय च वैश्यन्ताय च नमः कोप्याय च वट्याय च नमो वर्षाय च वर्षाय च नमो मेद्याय च विद्युत्याय च नमः ईत्र्याय च तप्याय च नमो वात्याय च रेश्म्याय च नमो वास्तव्याय च वास्तुपाय च ॐ हर 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 ॐ नमः सोमाय च रुद्राय च नमः ताम्राय चारुणाय च नमः शङ्गाय च पशुपतये च नमः उग्राय च भीमाय च नमो अग्रे वधाय च धूरे वधाय च नमो हन्त्रे च हनीयसे च नमो वृक्षेभ्यो हरिकेशेभ्यो नमस्ताराय नमः शम्भवे च मयोभवे च नमः शङ्कराय च मयस्कराय च नमः शिवाय च शिवतराय च नमः स्तीर्थ्याय च कूल्याय च नमः पार्याय च वार्याय च नमः प्रतरणाय चोत्तरणाय च नमः आतार्याय च लाध्याय च नमः षष्ट्याय च फेन्याय च नमः सिकत्याय च प्रवाह्याय च नम हिरण्याय च प्रपत्याय च नमः केगुंशिलाय च क्षयणाय च नमः कपर्दिने च पुलस्तये च नमो गोष्ठ्याय च गृह्याय च नमः तल्प्याय च गेह्याय च नमः कात्याय च गह्वरेष्ठाय च नमो हृदयाय च निवेश्याय च नमः पागुं सव्याय च रजस्याय च नमः शुष्क्याय च हृत्याय च नमो लोप्याय चोलप्याय च नमः ऊर्म्याय च सूर्म्याय च नमः पर्ण्याय च पर्णशद्याय च नमोपगुरमाणाय च विघ्नते च नमः आखिदते च प्रखिदते च नमो वक्रिकेभ्यो देवानागुं हृदयेभ्यो नमो विक्षीणकेभ्यो नमो विजन्वत्केभ्यो नम आनिर्हतेभ्यो नम आमीवत्केभ्यः द्राभे अन्धसस्पते दरिद्रं नीललोहिता एषाम् पुरुषाणामेषाम् पशूना माभिर्मा रोमो एषाम् किञ्चनाममत या ते रुद्र शिवा तनु शिवा विश्वाः भेषजे शिवा रुद्रस्य भेषजे तया नो मृडजीवसे इमागुं रुद्राय तवसे कपर्धिने शयद्वीराय प्रभरामहे मतिम् यथा नश्यमसद्विपदे चतुष्पदे विश्वं पुष्टं ग्रामे अस्मिन्ननातुरम् मृडानो रुद्रो तनो मयस्कृदे शयद्वीराय नमसा विधेमते यच्चम् च योश्चमनुरायजे पिता तदश्याम तव रुद्र प्रणीतो मानो महान्तमुतमानो अर्भकम् मान उक्षन्तमुतमान उक्षितम् मानो वजे पितरम् मोत मातरम् प्रियामानस्तनुवो रुद्ररीरिषः मानस्तोकेतन ये मान आयुषि मानो गोषु मानो अश्वेषुरीरिषः वीरान्मानो रुद्रभामितो वदेर्हविष्मन्तो नमसा विधेमते आरात्ये गोघ्न उत पूरुषग्ने शयद्वीराय सुम् नमस्मे ते अस्तु रक्षा च नो अधि च देव ब्रूह्यता च न शर्म यच्चद्भिबर्हाः सुहिश्रुतम् गर्त सदैयुवानम् मृगन्न भीममुपहत्नुमुग्रम् मृडा चरित्रे रुद्रस्तवानो अन्यन्ते अस्मन्निव पन्तु सेनाः परिणो रुद्रस्य हेतिर्वृणक्तु परित्वेषस्य दुर्मतिरघायो अवस्ति रामगवद्भ्यस्तनुष्वमीढ्वस्तोकाय तनयाय मृडया मीडुष्टम शिवतम शिवो न सुमना भवा परमे वृक्ष आयुधन् निधाय कृत्तिम् वसान आचर पिनाकम् बिभ्रधा गहे द्विगिरिद विलोहित नमस्ते अस्तु भगवः यास्ते सहस्रगुम् हेतयोऽन्यमस्मन्निव पन्तु ताः सहस्राणि सहस्रदा बाहुवोस्तव हेतयः तामीशानो भगव पराचीनामुखाकृते सहस्राणि सहस्रशो ये रुद्रा अधिभूम्या तेषागुम् सहस्रयो जने वदन्वाणि तन्मसे अस्मिन्महत्यर्णवेऽन्तरिक्षे भवा अधि नीलग्रीवाश्रितिकण्ठा शर्वा अधः क्षमाचराः नीलग्रीवाश्रितिकण्ठादिवगुम् रुद्रा उपश्रिताः ये वृक्षेषु सस्पिञ्जरा नीलग्रीवा विलोहिताः ये भूतानामधिपतयो विशिकासक्कपर्धिनः ये अन्येषु विविध्यन्ति पात्रेषु विपतो जनान् ये पताम् पतिरक्षय ऐलभृदायव्युदः ये तीर्थानि प्रचरन्ति श्रीकावन्तो निषङ्गिणः य एतावन्तश्च भूयागुंसश्च दिशो रुद्रावितस्थिरे तेषागुंसहस्रयोजने वदन्वाणि तन्मसे नमो रुद्रेभ्यो ये पृथिव्याम् येऽन्तरिक्षे ये दिवि ये शामन्नम् वातो वर्षमिषवस्तेभ्यो दश प्राचीर्दश दक्षिणा दश प्रतिचीर्दशोर्दशोर्ध्वास्तेभ्यो नमस्ते नो मृळयन्तु तेयम् विष्मो यश्च नो द्वेष्टितम् वोजम् वे ददामि त्र्यम्बकम् यजामहे सुगन्धिम् पुष्टिवर्धनम् उर्वारुकमिव बन्धनात् मृत्योर्मुक्षेयमामृतात् यो रुद्रो अग्नव्यो अप्सु य ओषधेषु यो रुद्रो विश्वा भुवना विवेश तस्मै रुद्राय नमो अस्तु ये ते सहस्रमयुतम् पाशा मृत्योर्मर्त्याय हन्तवे तान्यज्ञस्य मायया सर्वानवयजामहे मृत्यवे स्वाहा मृत्यवे स्वाहा प्राणानाम् ग्रन्थिरसि रुद्रो मा विशान्तकः तेनान्येनाभ्यायस्व नमो रुद्राय विष्णवे मृत्युर्मे पाहि तमुष्टु हि यश्विषु सुधन्वायो विश्वस्य क्षयति भेषजस्य यक्ष्वा महेशौ मनसाय रुद्रम् नमोभिर्देवमसुरन्दुवस्य अयम् मे हस्तो भगवान् अयम् मे भगवत्तरः अयम् मे विश्वभेषजो यगुम् शिवाभिमर्षणः ॐ शान्ति शान्ति शान्तिः ॐ शं च मे मयश्च मे प्रियं च मेऽनुकामश्च मे कामश्च मे सौमनसश्च मे भद्रं च मे श्रेयश्च मे वस्यश्च मे यशश्च मे भगश्च मे द्रविणं च मे यन्ता च मे धर्ता च मे क्षेमश्च मे धृतिश्च मे विश्वम् च मे महश्च मे संविच्च मे ज्ञात्रम् च मे सोश्च मे प्रसोश्च मे क्षीरम् च मे लयश्च मरुतम् च मे मृतम् च मे यक्ष्मम् च मे नाम यच्च मे जीवातुश्च मे दीर्घायुध्वम् च मे न मित्रम् च मे भयम् च मे सुगम् च मे शयनम् च मे शूषा च मे सुधिनम् च मे ॐ शान्ति शान्ति शान्तिः ॐ भद्रं कर्णेभिः शृणुयाम देवाः भद्रं पश्येवाक्षभिर्यजत्राः स्थिरैरङ्गैस्तुष्टुवागुंसस्तनोभिः व्यशेम देवहितं यदायुः स्वस्ति नगिन्द्रो वृद्धश्रवाः स्वस्ति नः पूषा विश्ववेदाः स्वस्ति नस्ताक्ष्यो अरिष्ठनेमिः स्वस्ति नो बृहस्पतिर्दधातु ॐ
Shanti, 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 Anunajadamashtarodasi iti Nanalingatvadridunam Nanasuryatvam Ashtaudubhyavasita iti Suryamandalanyashtata urdhvam Teshameshabhavate Chitram devanamudagadanikam Chakshur mitrasya varunatya agne Apradya vapridhive antariksham Surya atma jagatastastushaschete Kvedam abhranni vishate Kvayagum samvatsaromidhah Kvahak Kveyam deva ratri Kvamasarta vasrita Arthamasa muhurta Nimeshastru divissah Kvema apo nivishante Yadito yanti samprati Kala apsu nivishante Apasuryet samakita Abhranyapaprapadyante Vidyutsuryet samakita Anavarne ime bhumi Iyam chasau charodhase Kigasvidatvantara bhutam Yene me vidrate ubhe Vishnuna vidrate bhumi Ide vatsasya vedana Iravate dhe numate bhutam Suyavasini manushe dasatse Yashtabhnadrodase vishnavede Dadartha prithive mabhito mayughai Kindat vishnor balamahuhu Kadeptikyam parayanam Yeko yaddhara yaddevaha Rejase rodase ubhe Vadat vishnor balamahuhu Akshara adipti ruchyate Tripadadara yaddevaha Yadvishnorekamuttamam Agnayo vayavaschaiva Edadasya parayanam Prachyamitva param mrityam Avamam madhyamanchatum Lokancha punya papana etat prachyami samprati amumaguparam mrityam pavamanam tu madhyamam agnirevavamo mrityuh chandrama chaturuchyate anabhoga param mrityam Papa sayyanti sarvada abhogastveva sayyanti yatra punya krito janah tato madhyamama yanti chatumagrincha samprate prachyamitva papa kritah yatra yata yate yamah tvannat Tad Brahman Prabhruhe Yadive Ethat Sato Grihan Kashyapadudidat Suryah Papan Nignande Sarvada Rodasyoram Dadde Chesho Tatranyasyande Vasavai Te charira prapadyante यथा पुण्यस्य कर्मणः अपान्यपादके शासः तत्र तेयो निजा जनाः मृत्वा पुनर्मृत्युमापद्यन्ते अद्य मानाः स्वकर्मभिः आशातिकाकृमय इव तद पूयन्ते वासवैः अवैतम् मृत्युम् जयते य एवम् वेदा स खल्वैवम् विद्ब्राह्मणः दीर्घश्रुत्तमो भवते कश्यपस्यादिदिस्सिद्धगमनत्सिद्धागमनः तस्यैषा भवते आयस्मिन् सप्तवासवाः रोहन्ति पूर्व्यारुहः ऋषिरः दीर्घश्रुत्तमः इन्द्रस्य घर्मो रतिधिरिते कश्यपश्यको भवते यत्सर्वम् परिपश्यतेति सौक्ष्म्यात् अधाग्नेरष्टपुरुषस्य तस्यैषा भवते अग्नेन यसुपधा रागे अस्मान् विश्वानि देव वयुनानि विद्वान् युयोज्यस्मज्जुहुराणमेनः भूयिष्ठान्तेन म उक्तिम् विधे मेते अग्निश्च जात वेदाश्च सहोजा अजिरा प्रभुः वैश्वानरो नर्यापाश्च पङ्क्तिरादाश्च सप्तमः विसर्पेवाष्टमोऽग्नीनाम् एतेष्टौ वसवः क्षिता इति यदर्त्वे वाग्नेरर्चिर्वर्णविशेषाः नीलार्चिश्च पीतकार्चिर्चेते अथ वायोरेकादश पुरुषस्यैकादश स्त्रेकस्य प्रभ्राजमानाव्यवदाताः याश्च वासुके वैद्युताः रजताः परुषाः श्यामाः कपिला अतिर्लोकिताः ऊर्ध्वा अवपतन्ताश्च वैद्युत इत्येकादश नैनम् वैद्युतो हि नस्ति य एवम् वेद सहोवाच व्यास पाराशर्यः विद्युत्वधमेवाकम् मृत्युमैच्छमिति न त्वकामगुम् हन्ति य एवम् वेद अध गन्धर्वगणाः स्वानभ्राड् अङ्गारिर्बम्भारिः हस्तः सुहस्तः कृशानुर्विश्वा वसुः मूर्धन्वान्सूर्यवच्चाः कृतिरित्येकादश गन्धर्वगणाः देवाश्च महादेवाः रश्मयश्च देवागरगिरः नैनम् गरो हि नस्ति य एवम् वेद गौरेमिमायसलिला नितक्षते एकपदे द्विपदे सा चतुष्पदे अष्टापदे नवपदे बभूभुषे सहस्राक्षरा परमेभ्यो मन्यते वाचोऽभिशेषणम् अदनिगदव्याख्याताः ताननुक्रमिष्यामः वराहवस्वतपसः विद्युन्महसोधूपयः श्वापयो गृहमेधाश्चेत्येते ये चे मेषिमिद्विषः पर्जन्यात् सप्त पृथिवीमभिवर्षन्ते पृष्टिभिरिते एतस्यैव विभक्तिरिपरीताः सप्तभिर्वातैरुदीरिताः अमूल्लोकानभिवर्षन्ते तेषामेषा भवते समानमेतदुदकम् उच्चैत्यवचाहभिः भूमिम् पर्जन्याजिन्वन्ते दिवम् जिन्वन्त्यग्नयगिते यदक्षरम् भूतकृतम् विश्वे देवा उपासते महर्षिमस्य गोप्तारम् जमदग्निमकुर्वत जमदग्निमाप्यायते छन्दोभिश्चतुरुत्तरैः राज्ञः सोमस्य तृप्ता सह ब्रह्मणा वेद्यावत शिवा न प्रदिशो दिशः तच्छैयोरावृणीमहे गातुम् यज्ञाय गातुम् यज्ञपतये दैवे स्वस्तिरस्तु नः स्वस्तिर्मानुषेभ्यः ओर्ध्वम् जिगातु भेषजम् शन्नो अस्तु द्विपदे शं चतुष्पदे सोमपा असोमपा इति निगतव्याख्याता भद्रं कर्णे वितृणुयामदेवाः भद्रम् पश्ये माक्षभिर्यजत्राः स्थिरैरङ्गये तुष्टुवागुंसस्तनुभिः व्यथेम देवहितम् यतायुः स्वस्ति न इन्द्रो वृद्धश्रवाः स्वस्ति न पूषा विश्ववेदाः स्वस्ति नस्ताध्यो अरिष्टनेमिः स्वस्ति नो बृहस्पतिर्दधातु ॐ शान्ति शान्ति शान्तिः ॐ निधनपतये नमः
निधनपतान्तिकाय नमः ऊर्ध्वाय नमः ऊर्ध्वलिङ्गाय नमः हिरण्याय नमः हिरण्यलिङ्गाय नमः सुवर्णाय नमः सुवर्णलिङ्गाय नमः दिव्याय नमः दिव्यलिङ्गाय नमः भवाय नमः भवलिङ्गाय नमः शर्वाय नमः शर्वलिङ्गाय नमः शिवाय नमः शिवलिङ्गाय नमः ज्वलाय नमः ज्वललिङ्गाय नमः आत्माय नमः आत्मलिङ्गाय नमः परमाय नमः परमलिङ्गाय नमः एतत् सोमस्य सूर्यस्य सर्वलिङ्गस्थापयति पाणिमन्त्रम् पवित्रम् सद्यो जातम् प्रपद्यामि सद्यो जाताय वै नमो नमः भवे भवेनाति भवे भवस्व मा భవోద్భవాయ నమః వామదేవాయ నమో జ్యేష్ఠాయ నమః శ్రేష్ఠాయ నమో రుద్రాయ నమః కాళాయ నమః కలవికరణాయ నమో బలవికరణాయ నమో బలాయ నమో బలప్రమథనాయ నమః సర్వభూతదమనాయ నమో మనోన్మనాయ నమః అఘోరేభ్యోఘోరేభ్యో ఘోరఘోరతరేభ్యః సర్వేభ్యో నమస్తే అస్తు రుద్రరూపేభ్యః తత్పురుషాయ విద్మహే మహాదేవాయ ధీమహి తన్నో రుద్ర ప్రచోదయాత్ ఈశాన సర్వవిద్యానాం ఈశ్వరః సర్వభూతానాం బ్రహ్మాధిపతిర్బ్రహ్మణోధిపతి బ్రహ్మ శివో మే అస్తు సదాశివో నమో హిరణ్యబాహవే హిరణ్యవర్ణాయ హిరణ్యరూపాయ హిరణ్యపన్యపతి ఉమాపతయే పశుపతయే నమో నమః ఋతవం సత్యం పరం బ్రహ్మ పురుషం కృష్ణ పింగళం ఊర్ధ్వరేకం విరూపాక్షం విశ్వరూపాయ వై నమో నమః సర్వో వై రుద్రస్తస్మై రుద్రాయ నమో అస్తు పురుషో వై రుద్రస్తన్మహో నమో నమః విశ్వం భూతం భువనం చిత్రం బహుదా జాతం జాయమానం చయత సర్వో హేశ రుద్రస్తస్మై రుద్రాయ నమో అస్తు కర్ద్రుద్రాయ ప్రచేతసే మేడుష్టమాయ తవ్యసే గోచే వశంతమగుం హృదే సర్వో యేశ రుద్రస్తస్మై రుద్రాయ నమో అస్తు ఓం శాంతి శాంతి శాంతిః గతవేదసే సునవామ సోమమరాతి యతో నిదహతి వేదః సన పరిషదతి దుర్గాని విశ్వానావేవ సింధుం దురితాత్యగ్నిః తామగ్నివర్ణాం తపసా జ్వలంతీం వైరోచనీం కర్మఫలేషు తుష్టా దుర్గాం దేవీగుం శరణమహం ప్రపద్యే సుతరసి తరసే నమః అగ్నే త్వం పారయానవ్యో అస్మాన్ స్వస్తిభిరతి దుర్గాని విశ్వా ఊస్య పృథ్వీ బహుళాన ఉర్వీ భవాతోకాయ తనయాయ శయ్యో విశ్వాని నో దుర్గః జాత వేదస్సింధుం ననావా దురితాతిపర్షి అగ్నే అత్రివన్మనసా గృణానో స్మాకం బోధ్య వితాతనూనా ఋతనాజితగుం సహమానముగ్రమగ్నిగుం హువేమ పరమాచ్చదస్తాత్ సన పరిషదతి దుర్గాని విశ్వా శ్యామద్దేవో అతి దురితాత్యగ్నిః ప్రజ్ఞోషి కమీడ్యో అధ్వరేషు సనా చ హోతానవ్యశ్చ సత్సీ స్వాంచాగ్నే తనువం పిప్రయస్మాస్మభ్యం చ సౌ భగవాయ జస్వ గోభిర్జుష్టమయుజో నిషిక్తం తవేంద్ర విష్ణోరను సంచరేమ నాకస్య పృష్టమభి సంవసానో వైష్ణవే లోక ఇహమాదయంతా కాత్యాయనాయ విద్మహే కన్యకుమారి ధీమహి తన్నో దుర్గి ప్రచోదయాత్ స్వస్తి ప్రజాభ్యః పరిపాలయంతాం న్యాయేణ మార్గేణ మహీమహీషా గోబ్రాహ్మణేభ్యశుభమస్తు నిత్యం సమస్తలోకాః సుఖినో భవంతు సమస్తలోకాః సుఖినో భవంతు సమస్తలోకాః సుఖినో భవంతు ఓ